So say it.
Ekam. I didn't hear you at all. So yeah, in fact. Thank you.
Not.
Now why?
Then so then and so more. Better, right?
Yes.
So what we have is, I was trying to make two groups, Shyamala Bhagini, Seema Bhagini and Anjana Bhagini, group 1, and Krishnan Mohade. Som Mohde and Amit Mohde in group 2. So Ekam, Ekam is Shyamala Bhagini. Asking Bhagini, Krishnan Mohde Nama Bhavan Kaha.
Krishnan Mohde Bhavan
Kaha. Bhavan Kaha. Krishnan Mohde, group 2, can you ask somebody from group 1 their name?
Unmute, family.
Krishnan
Mohde. Shall I ask?
Ask somebody from group 1 their name.
Okay. Bhavati ka.
Bhavati ka. To who's that question?
Aparna Krishnan.
Aparna Bhavatim Prichami. To whom that question is? To group 2?
I forgot who was there in group 2.
So in group 2, there is Som Mohde, Amit Mohde and Krishnan Mohde.
Okay, I'm asking Som Mohde.
So Som Mohde, Pruchatu.
Aham Som, Somaha. Aham Somaha.
Group 1.
Bhavati Shyamala. Want to ask?
So you.
Bhavati. Bhavati
Shyamala.
Bhavati ka.
So you can ask somebody in your group.
Bhavati ka.
Aham Seema, Bhavati ka?
Aham Seema, Bhavati ka? Dhanyavad Seema Bhagini. So there are two ways to ask the same question, that who are you or what is your name? That is the meaning. So when we say Bhavati ka or Bhavan kaha, it means who are you? Then instead of saying Bhavataha Nama Kim, which means what is your name? So when somebody say who are you, you can also answer that I am a doctor, I am a teacher. Remember that we did that sometime before, that I am a doctor, I am a student, I am a woman, I am clever, anything. So next we will do few verbs to be used in Sanskritam. So atra mahila asti. Mahila asti. Mahila kim karoti? Mahila dhavati. Mahila runs. Okay. Mahila dhavati. Mahila kim karoti? Mahila dhavati. Astu. Balaha asti. Kim asti? Balaha asti. Balaha kim karoti? Balaha kridati. Balaha kridati. The boy plays. बालाः क्रीडति सः किं करोति सः गच्छति सः गच्छति What does he do? He goes. So, now, Shyamala Bhagini, can you read the first? Balaha kim karoti?
Balaha hasati.
Dhanyavada. Krishna Mode, Shishu kim karoti? Seema Bhagini, can you say? Shishuhu.
Shishuha Roditi.
Pushpam. Pushpam.
Pushpam.
Pushpam. Pushpam.
विद्यालयः उत्पद्यति बिडालाः उत्पतति When we say उत्पतति पतति is to fall उत्पतति means बिडालाः jumps goes up down उत्पतति Then अञ्जना भगिनी कुक्कुरः किं करोति
गच्छति
अञ्जना भगिनी अस्ति वा भगिनी अस्ति वा अञ्जना भगिनी न श्रूयते अमित कुक्कुरः आगच्छति अस्तु देन् सोमोदे बालिका करोति
बालिका गायति
बालिका गायति अस्तु दीपमोदे भिक्षुकः किं करोति भिक्षुः किं करोति भिक्षुः ध्यायति
भिक्षुः
अस्तु शिल्पा भगिनी भिक्षुः किं करोति
भिक्षुः उपविशति
भिक्षुः उपविशति भिक्षुः ध्यायति अस्तु देन् वि हेव् कृष्णन् महोदय
सः
कर्तयति
सः कर्तयति हि कट्स् सा पश्यति
what you can do is when we have to say the any kriya then we say ti we add the kriya and kriya padam and add the ti into that saha kartayati sa pashyati sa pachati saha api pachati kukuraha भषति कुक्कुरः आगच्छति भिक्षुः ध्यायति भिक्षुः उपविशति सो इन् एव्रिथिङ्ग् देर् इस् अ ति राइट रामः गच्छति सीता गच्छति मित्रम् आगच्छति भवान् गच्छति वदति धावति पश्यति एनिथिङ्ग् you can add but when you have to say aham with me with I then what you say aham khadami for example I eat so aham khadami saha gachati aham gachami saha gachati aham gachami सः कर्तयति अहं कर्तयामि भिक्षुकः उपविशति अहम् उपविशामि अहं ध्यायामि अहं गायामि अस्तु अहम् आगच्छामि अहम् उत्पतामि अहम् अहं रोदामि हसामि अहं गच्छामि अहं कार्यं अहं क्रीडामि अहं धावामि अस्तु अहं धावामि नौ पठति पठामि नृत्यति नृत्यामि अहम् अस्मि रामः अस्ति अहम् अस्मि राम एक्सिस्ट् अहम् एक्सिस्ट् ओर् ऐ एम् देयर् नौ अहम् आगच्छामि खादामि पिबामि पठामि मिलामि गृह्णामि पश्यामि जिघामि जिघामि गायामि नृत्यामि लिखामि चलामि धावामि उत्पतामि whether it's a boy or anybody else or for yourself and one anything around Shyamala Bhagini yes you are
asmi
अस्मि अहमस्मि
अहमस्मि
एकं वाक्यं रचयतु कृपया
सः जिघ्रति
सः
जिघ्रति
सः जिघ्रति राइट सः जिघ्रति एकं वाक्यं फॉर योर सेल्फ एज वेल
अहं गायामि
जय मा
हा अस्मि अहमस्मि भगिनि
भवान् भवान् वदतु
कृष्णः गायति अहं चलामि
कृष्णः गायति अहं चलामि
गायामि
अहं गायामि धन्यवादः
धन्यवादः
सीमा भगिनी
अहं नृत्यामि
डू यू ट्रान्स्लेट् दट्
ऐ एम् डान्सिङ्ग्
ओ अहं नृत्यामि अहं नृत्यामि एकम् अन्यवाक्यं वदतु
अस्मि धावति
अस्मि धावति वट् हौ डु यु ट्रान्स्लेट् दट्
He is running.
He is running, that is, Saha Dhavati. Aham Asmi. That is like I exist or I am there. Aham Asmi. Like, for example, when I say, Sima Bhagini Astiva, Aparna Bhagini Astiva, you can say, Asmi, Aham Asmi. Right? Yes, I am here. And then, when you are saying ti, ti is for third person, anybody else. Like, Saha Dhavati, Sa Dhavati. Kukraha Bhashati, that dog barks. Something, third person. Then you use ti.
Okay.
For yourself, you have to use me. Aham. Bhagini? Aparna Bhagini?
Lekhakaha likhati. He writes, the writer writes. Aham likhami, I write.
समीचीनं भगिनि धन्यवादः अञ्जना भगिनि
हा सा लिखति अहं लिखामि
सा लिखति अहं लिखामि सा हौ डु यु ट्रान्स्लेट् सा लिखति
सा लिखति शी इस् रीडिङ्ग् लक्ष्मी शी इस् राइटिङ्ग् सोरि
शी राइट्स्
शी राइट्स्
अहं ऐ राइट्
ऐ राइट् या
सो धन्यवादः भगिनि नेक्स्ट् इस् सोम महोदय
रामः धावति अहं धावामि
अहं धावामि
धावामि राम इस् रनिङ्ग् ऐ एम् रनिङ्ग् करेक्ट्
अमित महोदय अस्ति वा
व्हाट डू यू कॉल टीचिंग
टीचिंग इज पाठयामि पाठयति पाठयामि पठति पठति इज टू स्टडी बट व्हेन यू आर सेइंग टू टीच दैट इज पाठयामि
अनुराधा भगिनी पाठयति अहं लिखामि
पाठयति पठामि
अहं पठामि
अहं पठामि अध्यापकः पाठयति धन्यवादः महोदय बहु समीचीनम् अस्तु सो नौ लैक् दिस् स्लैड् इस् एक्स्प्लेनिङ्ग् देट् यू फोर् धातु द मेन् रूट् धातु मूल् धातु फोर् एक्साम्पल् इस् पट् फोर् थर्ड् पर्सन् वि एड् अ प्लस् ति बट् फोर् उत्तम पुरुषः वि एड् अ लोङ्ग् अ प्लस् मी पठामि खादामि लैक् धावामि रिमेम्बर् रो दीमि शृणोमि अस्मि धातु इस् अस् एण्ड् वि एड् मी सो सम् आफ् दीस् धातुस् दे हेव् डिफ्रेण्ट् फोर्म्स् so we add do not add a into that some dhatu we add a like pathati khadati but for roditi we don't add a there roditi roditi rodimi shrinoti shrunomi asti asmi अस्तु दन्तधावनं करोमि अहं दन्तधावनं करोमि प्रातःकाले अहं दन्तधावनं करोमि अनन्तरं अहं दन्तधावनं करोमि अनन्तरं मुखं प्रक्षालयामि व्यायामं करोमि भोजनं खादामि वस्त्रं धरामि कार्यालयं गच्छामि कार्यं करोमि कार्यानं चालयामि वस्तूनि क्रीणामि गायामि नृत्यामि फलरसं पिबामि स्नानामि एण्ड् निद्रामि सो देट् इस् द दिनचर्या सो भवान् वदतु एकमेकं भवती किं किं कार्यं करोति श्यामला भगिनी किं किं कार्यं दिनचर्यायां करोति
अहं दन्तधावनं करोमि अनन्तरं मुखं प्रक्षालयामि अहं ऐ प्ले प्ले मी
ऐ प्ले आफ्टर् देट् अहं क्रीडामि
अहं क्रीडामि अहं पश्यामि पचामि
पचामि
अहं पचामि अहं पठामि
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 अस्तु भगिनि धन्यवादः अस्तु कृष्णन् महोदय ओ सोरि न कृष्ण जय महोदय जयराम भवान् किं किं कार्यम्
अहम् उत्तिष्ठामि दन्तधावनं करोमि पूजां करोमि स्नानं करोमि पूजां करोमि भोजनं खादामि अहं वस्त्रं धरामि, अहं कार्यालयं गच्छामि, कार्यं करोमि, गृहम् आगच्छामि, संस्कृतपाठं पठामि, दूरदर्शनं पश्यामि.
समीचीनं
करोमि.
बहु समीचीनं, धन्यवादः महोदय. सो यु सी दट् यु सी दट् अहं दूरदर्शनं पश्यामि, अहम् अल्पाहारं करोमि, अहं क्रीडामि, अहं भोजनं पचामि, अहं जलं पिबामि, अहं काफीं पिबामि, अहं पाठयामि, अहं पठामि. अस्तु, नेक्स्ट् इस् सीमा भगिनी. भगिनी किं किं कार्यं करोति प्रतिदिनं? भगिनी किं किं कार्यं करोति?
What is I wake up in Sanskrit?
अहम् उत्तिष्ठामि.
अहम् उत्तिष्ठामि. अहं दन्तधावनं करोमि. अहं व्यायामं करोमि. अहं भोजनं खादामि. अहं कारयानं चालयामि. अहं वस्तूनि क्रीणामि.
अस्तु, अन्य भगिनि? फिनिश्ड्? नेक्स्ट् इस् आफ्टर् देट् अपर्णा भगिनि. कृपया म्यूट् करोतु भवान्. We can hear you and it's all being recorded as well, the background noise. अस्तु भगिनि, वदतु.
अहं व्यायामं करोमि, भोजनं करोमि, अहं पूजां करोमि और पूजां करिष्यामि.
करिष्यामि इस् डिफरेण्ट्. करिष्यामि, ऐ विल् डू.
ओके, अहं पूजां करोमि. अहं कार्यालयं कार्य करोमि.
अहं कार्यालयं
कार्य मीन्स् आफीस् वर्क्. ऐ डू आफीस् वर्क्. ओके, अहं पचामि. ऐ कुक्.
अपर्णा भगिनी म्यूट् करोतु कृपया. अस्तु, धन्यवादः. देर् इस् सम्बडि. कृष्ण महोदय, केन् यु म्यूट् प्लीस्?
यस्. वस्त्रं धरामि, कार्यालयं गच्छामि, कार्यं करोमि, कारयान् चालामि. वस्तूनि क्रीणामि. अहं गायामि. अहं नृत्यामि.
धन्यवादः, समीचीनं. म्यूट् करोतु अनन्तरम्. अस्तु, नेक्स्ट् इस् सोम महोदय. सोमः सो महोदय अस्ति वा
हा या अहं पठयामि अहं
पुनः वदतु अहं
पठयामि
पठामि वा पाठयामि
पाठयामि
पाठयामि विच् मीन्स् यु आर् यु टीच् रैट्
ओके
भवान् अध्यापकः अस्ति वा
नैन् नो नो जस्ट् ओके अहं दत्तवा दन्तवानां करोमि
दन्तधावनं करोमि
दन्तधावनं करोमि अहं भोजनं करोमि अहं वास्तूनि करोमि
वस्तूनि क्रीणामि
वस्तूनि क्रीणामि ओके अहं वस्त्रं धरामि अहं धरामि अहं कार्यं धारोमि
अहं
कार्यं
अहं कार्यं समीचीनं नास्ति अहम् अहं
कार्यं करोमि
अहं कार्यं करोमि समीचीनं
करोमि
अस्तु धन्यवादः अस्तु नेक्स्ट् वी हेव् परमेश्वरं महोदय परमेश्वरन् महोदय अस्ति वा
हां महोदय hey please tell me I attended class yesterday the same class today
I don't know which class did you attend yesterday
stay at night 8:30 class
with me or somebody else
I think it is TT only
it is a different class No, it is different class. Yeah, it might be a repeat for you.
Yeah, you are having two classes.
Yes.
Okay, I think I have a misunderstanding. I don't know which, but I am having the group. So I got a message, there is a class today.
Okay, Aston. Chinta Master Bhavan, I do Friday class as well as Saturday class.
okay so I want you want me to say something on this
if you want to
aham padami aham bhojanam khadami aham veedam shrunami aham gara karyanam chalami aham maapani gachami
aham aapanam
jnanam karami अहं पूजां करोमि
अस्तु आपणं गच्छामि अहं पूजां
आपणं गच्छामि अहं पूजां करोमि
धन्यवादः महोदय ऐ डोण्ट् मैण्ड् बिकोस् मोर् प्राक्टिस् इट् इस् बेटर् बट् for a Friday group that is already on chapter 11 and this one is chapter 8
okay
so you are welcome to stay
what is the meaning of gachami
aham gachami
going or go
gachami going
I go. I go, like I go to school, I go to college, Pathshala, I go to the office, I go to the shops. Like, it's more like I go to, you might say, aham pratidinam apnam gachame. I go there every day. Yeah?
Okay, thank you.
अस्तु धन्यवादः शिल्पा भगिनी are you able to make few sentences?
Aham pratakhale uttishtami. Aham dantadavanam karomi. Aham mukam prakshalayami. Aham phalarasam pibami. Aham snami. Aham vastram darami. Aham upaharam pachami. Upaharam kadami.
Alpaharam.
Alpaharam karami. Pujam karomi.
Samishna. Dhanyavadah bhagini. Amit Mohode asti va.
Aham pratyakale uttishtami. Dantadhavanam karomi. Aham vyayam karomi. Aham dhyanam karomi. Aham bhojanam karomi. Aham karyalayam na gacchami.
Na gacchami.
Na gacchami. Kintum graham yantram karyam karomi.
Graham, puna vadatu?
Graham karyam karomi. I wanted to say I work on PC at home. I cannot go to office now. I cannot go to office. How do I say that?
Aham karyalayam gantum na shaknomi. But I cannot go. Na shaknomi. I am not able to go there. Okay. And then you are saying grahe eva. At home only, it's like eva. When you add eva, it adds little bit of importance or stress. Grahe eva karyam karomi. I work at home.
Grahe eva karyam karomi.
So,
how do I say I cannot go? Karyalayam.
Karyalayam gantum na shaknomi. To go.
Okay.
I'm not able to go there. Gantum na shaknomi.
Okay. Gantum na shaknomi.
Have you said I'm a housewife? I work at home.
Yeah, housewife. You will just say aham mahila asmi.
Oh, okay.
I think let me actually housewife can be said in so many different ways that you will have to describe it. Like, what do you mean by housewife? So give me a second and I'll give you the right word. So I'll come back to you in a minute. So, who else is there? Anybody missed out? That background noise is too much. So, next is, before we go there, is mukam karoti. Mukam karoti vachalam pangu langhayate girim. Mukam karoti vachalam pangu langhayate girim. Yat kripa taham vande parmanand madhav. Astu, Bhagini, your word is here, kutumbini, housewife. Aham kutumbini.
Okay, thank you.
Or aham grahini. Grahini is, we know all that, grahini is quite a popular word. Astu, mukam karoti vachalam pangu langyate girim, yat kripa taham vande Paramananda Madhavam. So what it means is the that I devote, aham vande, aham tam, aham vande, I pray to that Paramananda Madhavam, the divine grace of Krishna. Yat kripa.
Sorry, Bhagini. Bhagini, please ask everybody to mute. There is a lot of disturbance from some people. They are not muted. Only people who talk, let them unmute. So individual people have to mute themselves, right? I have to mute them individually, which is quite... We can mute ourselves. You need not mute us. Bhagini?
Yeah, I know that, announce, but the people are not doing...
You are... Mr. Christian, mic is on all the time.
Yeah, with repeated request, people...
Mute everybody and unmute yourself, that's all.
Probably Mr. Christian doesn't know how to mute his mic. Please request him to mute. The sound is coming only from his mic.
Hmm. I think with Krishnan Mode, I'm not quite sure. Is it better now?
It's better, much better. Thank you.
Shamatam Krishnan Mode, we had to mute you, but you can always unmute and mute yourself again when you want to speak. So, let's go back to 100%. So this shloka we pray every day in our prayer. Kain vacha man sendriyeva buddhyatmanava prakrite sabhavat karomi yad saklam parasmai narayaneti samarpayami. So what it means that I, with my body, with my speech, kayen vacha, with my speech, man sendriyeva, mind or sense organ, buddhyatmanava, using my intellect, prakite sabhavat, you see, like through the tendencies of mind, prakrite sabhavat, by the nature of the mind. Karomi yad sakalam parasmai. Whatever I do for that Narayan, I devote everything. Everything I samarpayami. I give everything to my that Supreme God. With my intellect, with my body, with my speech, with my sense organs, with whatever consciously or unconsciously the tendencies of mind are there, I totally devote myself to that Supreme God, to the lotus feet Supreme Guru. That is what we it means. So let us do little katha now for the chaturkaka.
Bhagini, previous shloka we didn't hear.
This one, mukam karoti vachalam pangur.
Yes. It was not audible.
Paramananda madhavam. So it is basically saying ki mukam karoti vachalam, to the dumb who cannot speak, makes it vachalam, to make it a speaker or eloquence. Then pangu langyate girim, the one who is lame can cross the high mountains. Yat kripa, whose kripa Paramananda Madhavam, tam aham vande, aham tam, to that Supreme God I am praying, I devote myself. Okay? Astu. Chaturkakaha. So now you will have to answer after listening to the katha. Listen very, very carefully, and I will stop sharing the screen after that when I will ask the question. Ekaha gramaha. Ekaha gramaha asti. Tatra ekaha chaturaha kakaha nivasati. Lives, nivasati. Tatra ekaha chaturaha kakaha nivasati. Ekada grisham kalaha tapiyati. Tapiyati was like very sunny. Tapiyati with the becomes hot. Ekada grisham kalaha tapiyati. Kakaha trishyati. Kakaha trishyati, he was very thirsty. Kaka was thirsty. Kintu jalam kutrapi nasti. But there was no water anywhere. Kutrapi, nowhere. Okay, kintu jalam kutrapi nasti. Kakaha pashyati. Kakaha pashyati. He sees. Kakaha atra pashyati. Tatra pashyati. Kakaha sarvatra pashyati. Kakaha atati. Saha sarvatra atati. Saha kutra atati. Saha sarvatra atati. Kutrapi jalam nasti. Kutrapi jalam nasti. Kakaha ekatra pashyati. Tatra ghataha asti. Tatra ghataha asti. Ghatasya antaha svalapam jalameva asti. Ghatasya antaha svalapam jalameva asti. Kakaha chintyati. Ha hanta atra kinchit jalameva asti. Aham kim karomi. Aham kim karomi. Aham. Katham jalam pibami. Kakaha upayam chintyati. Kakaha kim karoti. Kakaha ekam upayam chintyati. Saha सर्वत्र शिलाखण्डं पश्यति. सः एकं शिलाखण्डं स्वीकरोति. सः किं करोति? सः एकं शिलाखण्डं स्वीकरोति. सः घटस्य अन्तः क्षिपति. क्षिपति थ्रोस्. सः घटस्य अन्तः क्षिपति. पुनः शिलाखण्डं स्वीकरोति. हि एक्सेप्ट्स् द स्टोन् अगेन्. घटस्य अन्तः क्षिपति. एवं पुनः शिलाखण्डं क्षिपति. अगेन् अण्ड् अगेन् हि ड्राप्स् द शिलाखण्ड् द स्टोन्. जलम् उपरि आगच्छति. काकः तुष्यति. He is satisfied. सः जलं पिबति. He drinks water. काकस्य बहु सन्तोषः भवति. अनन्तरं सः स्वनीदं गच्छति. चतुरः काकः. एषः पुरातनकालस्य चतुरः काकः. आधुनिककालस्य काका किं करोति? आधुनिककालस्य काकः किं करोति? अनन्तरं वदामि. अस्तु. एकः ग्रामः अस्ति. अस्तु. Now you can unmute to answer Shyamala Bhagini. Ekam uttaram dadatu. Shamatam. Kakaha kutra nivasati. Kakaha kutra nivasati.
Kaka. एकः ग्रामः निवसति.
काकः एकं ग्रामे निवसति. तदा कृषं कालः अस्ति. काका किमर्थम् अटति? काकः किमर्थम् अटति? अस्तु. जयरामन् महोदय,
काकः अटति. किमर्थं अटति? काकः तृषति.
तृष्यति.
जलं तृष्यति. जल पश्यति. काकः पश्यति. सर्वत्र पश्यति. कुत्रापि जलं नास्ति.
सः
सर्वत्र अटति.
सः सर्वत्र अटति. अतः सः सर्वत्र अटति. काकः तृष्यति. हि वास् थर्स्टि. एण्ड्
सः
सर्वत्र पश्यति. किन्तु कुत्रापि जलं नास्ति. अतः सः तत्र अत्र तत्र सर्वत्र अटति. सो हि वास् एव्रिवेर्. हियर् देर् हि वास् searching for water.
Atati means searching?
No, atati means like bhatakna. Here and there.
Wandering here and there.
Yeah. How about achati?
What?
Achati.
We did not use achati.
Pashyati.
No, next clip, Achyati.
Achyati? No, Achyati.
Agachyati.
Agachyati, okay, sorry.
Agachyati means to come, he comes.
Come. And
Swayam. Swaneedam, in his own nest. Swaneedam, Swagraham, Swakaryam.
Okay.
Yeah? Okay. Your own work, own nest, own house. Own anything you can say swakaryam. Yeah, swa ichha, that your own swabhiman. So here we have used swanidam. So next is Seema Bhagini. Ka kaha kim chintati? Kakaha kim chintati?
Kakaha drushyati. So kakaha upayam chintati.
Samichnam. Kakaha ekam upayam chintati. You don't have to say ekam. It just comes automatically. Kakaha ekam upayam chintyati. Or upayam chintyati. Samichnam. Then, Anjana Bhagini, saha kim pashyati? Saha kim pashyati sarvatra?
Saha jalam pashyati. Saha sarvatra silakhandam pashyati.
Saha pashyati jalam. Jalam bahu jalam laghu eva asti. That it was very little. Then sa sarvatra shilakhandam pashyati.
Khandam pashyati.
Saha atra kinchit jalam eva asti. That is very little water. Bahut little water is there. So saha ekam upayam chintyati. Saha sarvatra shilakhandam pashyati.
Pashyati.
Asti, dhanyavadaha. Then it's a... Som Mohode, is it Som Mohode? Yeah.
Yeah.
Asu. Som Mohode, Anantaram Saha Kim Karoti. Saha Shilakhandam Pashyati, Anantaram Saha Kim Karoti.
Saha Atra kim shilakhandam karati.
Saha ghatasya antaha. Saha shilakhandam swikaroti. He accepts a stone.
Yeah.
Ghatasya antaha shipati. So he drops that into the...
Okay. Ghatasya antaha
shipati. Ghatasya antaha shipati.
Shipati.
Astu. Next is Amit Mode. Saha punah punah kim karoti? Kakaha punah punah kim karoti?
Kakaha punah punah ekam shilakhandam svikaroti ghatasya antaha shipati.
Dhanyavada. Puna puna shilakhandam shipati. Ghatasya antaha puna puna shilakhandam shipati. Kim abhavat anantaram ataha kim abhavat Amit Mode?
Kim abhav?
Kim abhavat? Like, what happened after that?
Jalam upari agachati.
Jalam upari agachati. Samichnam. Shilpa Bhagini, saha anantaram kim karoti? Jalam upari agachati. Anantaram. Saha kim karoti?
सः तुष्यति, सः जलं पिबति.
सः सन्तोषेण जलं पिबति. समीचीनं, धन्यवादः. Then we have, who else is there? Krishnan Mode is there.
Yes,
ma'am. Saha anantaram jalam pitva saha kim karoti? Anantaram?
Anantaram sa sir sridhidam gachati.
Anantaram? अनन्तरं सः स्वनिधं गच्छति. सः
सः स्वनिधं गच्छति.
काकः कः? काकः चतुरः.
काकः चतुरः.
काकः चतुरः अस्ति. सो इन् योर् एस् योर् होम्वर्क् ट्रै टु रैट् दिस् स्टोरि इन् योर् ओन् वर्ड्स् without looking at it in small small lagu lagu vakyani rachyatu. And try to practice this story. So anantaram, so I said adhunika kalasya kaka kim karoti sa ekam ekam shila khandam na shipati ghatasya antah saha ekam
shasri karoti
na adhuna कालस्य चतुरः काका जलनलिकाम् आनयति. जलनलिकाम् कष्टं विना जलं उपाय मया अनु मया means that they should be according accordance with the time. So if we are in modern, then we follow that solution. सुखिनः सर्वे सन्तु निरामया,
सर्वे भद्राणि पश्यन्तु, मा कश्चित्
दुःखभवेत्.
ॐ शान्ति शान्ति
शान्ति.
अस्तु, अग्रे सप्ताहे मिलामः, अग्रे शनिवासरे मिलामः सर्वेभ्यः. शुभेच्छा, धन्यवादः.
धन्यवादः. जयरामन्, वाट् इस् दट् वर्ड् अण्ड् वाट् इस् द मीनिङ्ग्?